सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः त्रिप्रत्यय प्रकरणे सप्तदशः पाठः, मार्च् मासस्य चतुर्थः दिनाङ्कः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरण सिद्धांत कौमुदीयं विरच्यते। Continuing with the Sri Pratyaya Prakarana, wherein we are studying niche. So we saw many sutras for niche, starting from Anyato Niche, Shiddho Radhikhyascha, Janapada Kunda, etc. Now, one of the important sutras for niche, very, very widely applied, is Punyogad Akhyayam. Paradvayam asti, sutaha natu paratrayam. Punyogad Akhyayam, sidre pade. Anyato niche, ittekaha niche, ityano vartate. Ya pumakhya punyogad triyam vartate, tataha niche syat, iti sutrasthaha. So, let us see what the Balamanoramakara says at Punyoga. Punyoga iti hetau panchami. आख्यायाम् इति पञ्चम्याः सप्तम्यादेशः, सुपां स्थाने सुपो भवन्ति इति वक्तव्यम् इत्युक्ते है। सो एक्चुअली इट्स सेइंग पुञ्योगात् एंड आख्यायाम्। पुञ्योगात् इति पञ्चमी विभक्तिः, आख्यायाम् इति सप्तमी। सो वेयर इज पञ्चमी विभक्ति यूज्ड्? तस्मादि उत्तरस्य। सो ऑलवेज आई मीन इफ यू हैव द दिग्योग लक्षण पञ्चमी, वी से इट इज तस्मात् परस्य, तस्मात् परः भवति। So always, I mean, whatever we have seen in Sri Pratyaya Prakarana, it says Rnebhyaha Neep, Radantat Nantatya Pare, Neep Pratyaya Bhavadi. So if we take the similar meaning here, we would have to say Pniyogat Neesh Bhavadi, Kintu Saha Arthaha Navi Pratyaha, that is not what is intended. So that is why he clarifies Pniyogat Iti Hetau Panchami. It is not Digyoga Lakshana Panchami, that is the usual Panchami we use, but Hetau Panchami. Hetahu is reason. Okay, so Punyogat Triyam Vartate, Ata Eva Sutra Thekim Asti, Punyogat Triyam Vartate. So that word which exists in Srilinga because of its association with the Pullinga part of it. We'll understand when we see, look at an example. So Punyogad iti Hetau Panchami, Akhyayam iti Panchamyaha Saptamyadeshaha. So the actual Panchami here, that is the Pratipadika on which the Pratyaya is added, is Pumakhya. Okay. So the, but we have a Saptami Vibhakti there, so he clarifies that it is actually Panchami, Panchamyaha Saptamyadeshaha. We see this quite often in Vedas and Chandovat Sutrani Bhavanti Iteya Sutreshva Ki Drishyate. Supam Suluk Ityadi Sutramasti, Supam Supadeshaha. So for some Vibhakti, some other Vibhakti might be used occasionally, where say here Panchami Vibhakti is intended, but Saptami Vibhakti has been used. So the actual meaning is that of Panchami. Akhyayam iti Panchamya Saptamyadeshaha, Supam Sthane Supo Bhavanti Iti Vaktavyam Ityukte Hai. आख्या पुमाख्या इत्यस्य कोऽर्थः, आख्या इत्यनेन वाचकः शब्दः विवक्षितः। सो अ वर्ड इज इंटेंडेड, कस्य वाचकः इत्यपेक्षायाम्। सो अ वर्ड विच कन्वे समथिंग, सो व्हाट डज इट कन्वे? कस्य वाचकः इत्यपेक्षायाम् पुञ्योगात् इति उपस्थितत्वात् पुंसः इति लभ्यते। सो पुमाख्या, दट वर्ड विच इज, तथा च आख्यायाम् इत्यनेन पुंसि प्रसिद्धात् शब्दान् इति लभ्यते। सो आख्यायाम् मीन्स् पुमाख्या, मीन्स् अ वर्ड् विच् इस् फेमस् इन् पुल्लिङ्ग, दट् इस् विच् इस् कामन्ली इन् यूस् इन् पुल्लिङ्ग। पुंयोगादिति स्त्रियाम् इत्यत्र अन्वेति तथा च पुंयोगम् आश्रित्य लक्षणया स्त्रियाम् वर्तमानाद् इति लभ्यते. सो दट् विच् एक्सिस्ट् इन् स्त्रीलिङ्ग बिकास् आफ् इट्स् असोसियेशन् वित् द मेल् पार्ट् आफ् इट् इस् वाट् विल् गेट् नीश् फ्रम् दिस् सूत्र. या पुमाख्या पुंयोगात् स्त्रियाम् वर्तते ततः नीश् स्यात्. गोपस्य स्त्री गोपी इत्यस्ति. अत्र गोप शब्दः अस्ति. पुमाख्या पुंसि प्रसिद्धः शब्दः. गाः पाटी इति गोपः. सो नौ यु आर् रेफरिङ्ग् टु अ वुमन् दट् इस् हिस् वैफ्. ओके, नौ दिस् यु आर् रेफरिङ्ग् टु हिस् वैफ् बै द नेम् गोपी ओन्ली बिकास् आफ् हर् असोसियेशन् वित् अ गोप. शी विल् नाट् टेक् केर् आफ् द कौस् हर् सेल्फ्. सा स्वयं गाः न पाति. ओके, द यौगिक अर्थ इस् नाट् इण्टेण्डेड्. ओके, या स्वयं गाः पाति दट् इस् डिफरेण्ट्. सो हियर् इस् अ वुमन् हू डस् नाट् टेक् केर् आफ् कौस् बट् शी इस् रेफर्ड् टु बै दट् टर्म् ओन्ली बिकास् शी इस् अ वैफ् आफ् अ गोप. दट् इस् शी इस् असोसियेटेड्. पुंयोगः अस्ति. पुंयोगादेव अस्य पदस्य स्त्रियां वृत्तिः. स्वयं गाः न पाति किन्तु गोपेन सह सम्बद्धः. गोपस्य योगः अस्ति इति कारणेन तस्याम् अयं शब्दः वर्तते. तेन कारणेन अत्र पुंयोगः अस्ति. पुंयोगात् आख्यायाम् या पुमाख्या नाम गोपशब्दः पुंयोगात् स्त्रियां वर्तते ततः नाम तस्याः पुमाख्यायाः. फार् दट् पुल्लिङ्ग वर्ड् दट् इस् टु दट् पुल्लिङ्ग वर्ड् वि एड् द प्रत्यय नीश्. गोप इत्यस्मात् नीश् प्रत्यये कृते गोप ई इत्यस्ति. यस्येति च इत्यनेन आकारस्य लोपे गोपी इति लोपम्. गोपस्य स्त्री गोपी. गोपस्य स्त्री इति. गाः पाति इति गोपः. सो दट् इस् द योगिकार्थ. आतोनुपसर्गे कः. सो द पा रक्षणे धातुः. तस्मात् आतोनुपसर्गे कः इत्यनेन कप् प्रत्यये पा अ इति भवति. आतोलोप इति च इत्यनेन आकारस्य लोपे गोप इति रूपम्. गाः पाति इति गोपः. आतोनुपसर्गे कः. सज्जायायां तु. सो फार् हिस् वैफ् गोरक्षण अभावे अपि. सो दट् इस् द इम्पोर्टेण्ट् पायिण्ट्. शी इस् नाट् इन्वाल्ड् इन् टेकिङ्ग् केर् आफ् द कौस्. गोरक्षण अभावे अपि तद् भार्यात्वात् बिकास् शी इस् द वैफ् आफ् द गोप तद् व्यपदेशः नाम गोपशब्देन सा अपि उच्यते. ततश्च नियोगम् आश्रित्य लक्षणया स्त्रियां वर्तमानत्वात् नीशि यस्येति च इति अकारलोपः इति भावः. हरेः स्त्री शम्भोः स्त्री इत्यादौ न नीश्. स्त्रीप्रत्ययविधिप्रकरणे अतः इति अनुवृत्तेः. सो यु टु रिमेम्बर् अगेन् एण्ड् अगेन् दट् फार् आल् दीस् सूत्र स्टार्टिङ्ग् फ्रम् टिड्ढाणै all sutras unless specifically mentioned. So you have a voto gunavachanas where he says utaha. So unless specifically mentioned, all the sutras will apply only for akarantas. Sarvatra ajadyatashtava pityataha ataha iti anuvartate. Ataha hareha stri hari ityasmat nish na bhavati. Shambhohu stri shambhu ityasmat nish na bhavati. Hare stri shambho stri ityado na nish. स्त्री प्रत्यय विधि प्रकरणे अतः इति अनुवृत्तेः. या तु स्वयमेव गाः पाति. सो द नेक्स्ट् इस् इस् या तु स्वयमेव गाः पाति. शी हू टेक्स् केर् आफ् कौस् हर् सेल्फ् न तु गोपस्य स्त्री. एण्ड् शी इस् नाट् काल्ड् गोपी जस्ट् बिकास् शी इस् द वैफ् आफ् गोप. सा तु गोपा. देर् यु विल् नाट् हेव् नीश् बिकास् इट् इस् नाट् पुंयोग. गोप शब्दः अस्ति. अजाद्यतष्टाप् इत्यनेन टाप् प्रत्ययः. गोपा इति रूपम्. सा तु गोपा. तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्या. सो इट् नेचुरलि एक्सिस्ट् इन् स्त्रीलिङ्ग. गाः पाति स्त्रीलिङ्गः. स्त्रीलिङ्गम् अस्ति. स्त्रीलिङ्गविवक्षा अस्ति इत्यतः टाप् क्रियते. न तु स्त्रियां वृत्या पुंयोगाद् अवृत्तेः. सो नेक्स्ट् देर् इस् वन् मोर् पायिण्ट्. न च गोपस्य माता श्वश्रूः मातुलानी वा गोपी इति स्याद् इति वाच्यम्. सो दिस् थिङ्ग् जस्ट् सेस् पुंयोगात् स्त्रियां वर्तते. सो इट् इस् जस्ट् अ वुमन् हू इस् असोसियेटेड् वित् द गोप. सो केन् गोपस्य माता. गोपस्य माता गोपी भवति वा. विल् द मदर् आफ् अ गोप बि काल्ड् गोपी. गोपस्य स्त्री इत्युक्ते गोपस्य भार्या इत्येव अर्थः स्वीकृतः. गोपस्य मातुः अपि गोपी इति भवति वा. श्वश्रूः हिस् मदर् इन् लॉ. मातुलानि और् हिस् आण्ट्. सो न च गोपस्य माता श्वश्रूः मातुलानि वा गोपी इति स्यात् इति वाच्यम्. सो न च वाच्यम्. सो दट् विल् नाट् हेपन्. वै अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्दमपि इति भाष्यस्कारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात्. सो अकुर्वती पापं, इवन् दो शी डस् नाट् डू एनी पाप आर् सिन्, कमिट् एनी मिस्टेक् हर्सेल्फ्, भर्तृकृतान् वधबन्धादीन् यथा लभते. बट् एस् शी टेक्स् शी हेस् टु अण्डर्गो वाट् एवर् भर्तृकृतान् पापम् अकुर्वती, इवन् दो शी डस् नाट् टेक् पार्ट् इन् द क्रैम्स् आर् सिन्स् कमिटेड् बै हर् हस्बेण्ड्, शी विल् हेव् टु अण्डर्गो वधबन्ध एट्सेट्रा वाट् एवर् इफ् देर् इस् अ पनिश्मेण्ट् आर् दण्ड गिवन् बै द स्टेट् शी विल् हेव् टु अण्डर्गो इट् यथा लभते एवं तत् शब्दमपि. सो सिमिलर्ली द शब्द विल् आल्सो टेक् आन् द मेल् कौण्टर् पार्ट् इस् वाट् द भाष्य सेस्. सो इट् इस् ओन्ली द वैफ् हू एक्स्पीरियन्सेस् आल् दीस् वित् हर् हस्बेण्ड् एण्ड् नाट् एनी अदर् वुमन् इति भाष्यस्वारस्येन जाया अपत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात्. सो अकार्डिङ्ग् टु most vyakaranas, they say it is either jaya, that is the wife, or the daughter. Yes, Mr. Nandi, you have to say something. Okay, but I understand. So that is not the question, but I mean, do we get that from these words? Pasha, Akurvati? Oh, okay, so okay, fine. So, do you know the complete one? Or, okay, sure. So, I'll look it up myself. So, it is in the same. Okay, fine. Anyway. What is the conclusion? Iti bhashya swarasyena jaya apatyatmakasyaiva punyogasya vivakshitatvat. So, he says it is for the jaya and the apatya. That is, there is a sense of humor, well, it is how we look at it. So, probably, the Bhashyakara does use this, but for, in those days, I think it was a pretty serious example. Chaya apatyatmakasya, that it is confined to the wife and the daughter. But the Shekharakara does not agree. He says, the Shekharakara is Nagesha Bhatta. He says that it will apply only to the wife, not even to the daughter. So, Duhitari. But there are cases where for the daughter you have used Sri Pratyaya, which is Nish. Kekayi Devaki. Kekayasya Duhita. Kekayi is the daughter of the Kekaya Raja and not the wife. Similarly, Devaki is the daughter of Devaka, not the wife. So, Duhitani Kekayi Devaki Ityadayastu Gauradau Pathyaha. इति शब्देन्दुशेखरे स्थितम्. सो शब्देन्दुशेखर इस् द कमेण्टरी आन् कौमुदी बै नागेशभट्ट. सो ही डस् नाट् अड्मिट् इवन् द डाटर् इन् टु दिस् पर्व्यू. ही सिम्प्ली सेस् इट् इस् ओन्ली फार् द वैफ्. गोपस्य स्त्री इत्युक्ते गोपस्य पत्नी इत्येव. गोपस्य दुहितायाः दुहितुः न भवति. तर्हि दुहितुः कथम् ईश् प्रत्ययः? देर् आर् सम् केसेस्, अ फ्यू केसेस् वेर् द डाटर् हेज् as words indicating this, you have Janaki also, Janakasya, There are cases, but Janaki is, I think, there is a Tadhita added, and then it's okay. Yeah, because you need the Adi Vriddhi. So there's a Tadhita and then this, so that I think should work. But these two cases, Kekayi and Devaki, we have a Stri Pratyaya for the daughter. How do we do it? Bhageshavatta says it is not by Punyoga Dakhyaya. Gauradhi Akriti Ganaha. We have Shit Gauradhi Bhishya where we have Nish and it is an Akriti Ganaha. So if there are cases where there is a Stri Pratyaya on the daughter, they have to be included in Gauradhi Gana. Okay. So, Duhitari Kekai Devaki Ityadayas to Gauradhau Pathyaha Iti Shabdendu Shekhare Sthitam. Okay, that is his opinion, but many Vayakaranas consider both Jaya and Duhita. The Tatarvodhini also says, Svachaiha Dampati Bhavaha Eva Iti Na Agrahaha Hindu Janya Janaka Bhavaha Api Grishyate. So they take both, the Jaya and Apatya. Okay, so coming back to the Mula, there is a Vartika, Palakantat Na. So Gopalika iti udaharanam. So if there is a word ending in Palaka, Gamam Palakaha, so there will be no Sri Pratyaya even in Punyoga. Gopalakasya Sri iti Punyoge api Nishna bhavati, kintu Taveva bhavati Gopalika iti udaharanam. Gopalaka iti smart tap, Samarnadirhe Gopalaka, katham Ikaraha, how do we have an Ikaraka in Gopalika? This is the sutra which gives ikara for after lakara. Gopalaka iti pullinge. Katham sriyam gopalika iti ikara shruyate. Discussion on how to have this, but let us not go into it. Gopalika, Ashwapalika. We give two examples where if the word ends in Palaka, we will not have Nish. Surya Devatayam Chab Vachyaha. It is Vartika. Surya Devatayam iti vyakhyane. Devata bhutayam striyam punyogad vartamanat surya shabdat chap vaktavyaha ityarthaha. So there is a goddess when it refers to a goddess. The wife of Surya. Surya is stri ityarthe. Devatayam vachayam. If it refers to a goddess. Chap pratyaha bhavati. Instead of nish, there is chap. Chap is the fourth or fifth. How many Sri Pratyayas have we seen? Taap, Daap, Neep, Neesh. Okay, so fourth. This is the fifth Sri Pratyaya, which is Chaap. So very limited. Surya Devatayam Chaap Vachaha iti Vartikam. So Suryasya Sri Devata ityarthe Chaap Pratyaha Bhavati. Chapavito, Chakarasya, Chutu Ittanena Ittsamya, Pakarasya Halantya Mati Ittsamya, Akaraha Shishyate. So Chap is the third of the trilogy, Tap, Dap and Chap. Now we've seen Tap by Ajarkitashta, Dap by Dap Bhabhyamanyatarasya, Chap is given by this Vartika, Surya Devatayam Chap Vachya. सूर्यस्य स्त्री देवता सूर्या, सूर्यशब्दात् च नाम आकारः प्रत्ययः सूर्य आ इति स्थिते सवर्णदीर्घे स्थिते सूर्या इति भवति। देवतायां किं सूरी कुन्ती मानुषीयं, सो वै द स्पेसिफिकेशन् आफ् देवता, सूर्यस्य स्त्री नाम सूर्यस्य भार्या मानुषी अपि अस्ति कुन्ती, अतः तदा तु सूर्यस्य स्त्री इति स्थिते नीष् प्रत्ययः भवति नियोगादाख्यायाम् इत्यनेन सूर्य ई इत्यस्ति अकारस्य लोपः अस्ति इति चेति सूरदृश्यागस्य मत्स्यानां य उपधायाः इत्यनेन यकारस्यापि लोपः सूर् ई सूरी इति रूपं, सूरी नाम कुन्ती, सूर्या नाम सूर्यस्य स्त्री देवता संज्ञाच्छाया इति अथवा छाया सुवृश्चला इति द्वे भार्ये सूर्यस्य इति उच्यते, तयोः सूर्या इति नाम सूरी इत्युक्ते तु सूर्यस्य स्त्री मानुषी नाम कुन्ती इत्यर्थः। मानुषीयम् इति इयं कुन्ती मानुषी न तु देवता इत्यर्थः। एतच्च महाभारतादौ स्पष्टम्। न च सूर्या देवतायाञ्च इत्येव उच्यताम्, नीश निषिद्धे क्षम्यतां, सूर्या देवतायां न इत्येव उच्यताम्, नीश निषिद्धे तापा एव सूर्या इति सिद्धिः। सो वै द स्पेशल् प्रत्यय आफ् चाप् जस्ट् प्रिवेण्ट् नीश्, सूर्या देवतायां न इति उच्यते चेत् नीश् न भवति, तदा तु औत्सर्गिकतया टाप् प्रत्ययः भवति, टापि कृते अपि सूर्या इति रूपं सिद्ध्यति इति न वाच्यम्। टापिः सति पित्वाद् अनुदात्तत्वम्, अनुदात्तौ सुप्पितौ इत्युक्तेः, चापि तु चितः इति अन्तोदात्तत्वम् इति भेदः। सो अगेन् द डिफरेन्स् इस् इन् स्वर। सो टापि सति अनुदात्तान्तत्वं भवति, चापि तु अन्तोदात्तत्वम् इति भेदः अस्ति, अतः चाप् प्रत्ययः विशिष्य विधीयते इत्यर्थः। अग्रिमं सूत्रमस्ति, इन्द्रवरुणभवशत्वरुद्रमृढहिमारण्ये यवयवनमातुलाचार्याणाम् आनुक्, पदद्वयमेव अस्ति, इन्द्र वरुण भव शर्व रुद्र मृड हिम अरण्य यव यवन मातुल आचार्याणाम्, द्वादश प्रातिपदिकानि सन्ति, तेभ्यः आनुक् आगमः भवति इत्यर्थः। अन्यतो नीष् इत्यतः नीष् इति अनुवर्तते, एषाम् आनुगागमः स्यात् नीश्च, दीस् प्रातिपदिका देर् इस् नीष् प्रत्यय, आल्सो देर् इस् अन् आनुक् आगम, आनुक् इस् अ किद् आगम, ककार सम्य, सो इट् इस् एडेड् टु द एण्ड्, आद्यन्तौटकितौ इत्यनेन अन्तावयवः, आन् इति आगमः, उकारः उच्चारणार्थः, ककारस्य इत्सम्य अस्ति, लुप्यते, आन् इति आगमः अन्ते भवति इत्यर्थः। इन्द्रादीनां षण्णां मातुलाचार्ययोश्च नियोगे एव इष्यते। देर् इस् अनदर् स्पेशल् थिङ्ग् हि पायिण्ट्स् औट् फोर् द सिक्स् वर्ड्स् स्टार्टिङ्ग् फ्रम् इन्द्र, दट् इस् इन्द्र वरुण भव शर्व रुद्र मृड मातुल आचार्ययोश्च, अण्ड् फोर् मातुल अण्ड् आचार्य, कुयोगे एव इदं सूत्रं प्रवर्तते, कुयोगे एव इष्यते, पत्र नाम कुयोगे नीशि सिद्धे, सो नीश् इस् आल्रेडि गिवन् बै द सूत्र कुयोगादाख्यायां, बिकास् इट् इस् कुयोग, सो आनुगागममात्रं विधीयते। So in those eight cases, there is only Anuk being given by this sutra. That is, Nish is done by Punyoga Dakhyayam and Anuk is by Indra Varuna. Okay. Itanesham Chaturunam, for Hima, Aranya, Yava and Yavana, Ubhayam, nama Nish api anena sutrena iva vidhiyate, Anuk api anena iva sutrena. Yatohi tatra Punyoge Nishna. So in those cases, it is not Punyoga, but some special meaning which he gives later. So, in those cases, both Nish and Anuk are given by the same sutra. Indrani, Indrasya Sri ityarthaha. Indrasya Sri ityarthe, Indra Shabdati Nish Bhavati, Indra E. Anuk Agamaha Indra Shabdasya, Indran E ityarthi. Matvekrate Indrani iti rupam. एवं वरुणानि भवानी शर्वाणी रुद्राणी मृडानी इंद्र वरुण भव शर्व रुद्र मृड इंद्रादीनाम षण्णाम कुयोगे नीश नीश पूर्व सूत्रेण अनेन सूत्रेण तो अनुगागम मात्रम सो एतानि रूपाणि हिमारण्ययोर् महत्वे इति वाक्तिकम् फॉर हिमा एंड अरण्य महत्वार्थे द्योते नीश भवति महद्हिमं हिमानी सो लॉट ऑफ स्नो व्हेन देयर इज अ महत्व इज इट ग्रेटनेस और ह्यूज अमाउंट और अ लार्ज अमाउंट ऑफ स्नो तदा तु हिम शब्दात् नीश भवति नीश आनुक्त भवतः सो हिमानी इति रूपं सो हिमानी मीन्स महद्हिमं इत्येव अर्थः तत्र वस्तुतः स्त्रीत्वं नास्ति उपयोगः नास्ति सच मीनिंग्स आर नॉट इंटेंडेड महद्धिमम् इत्यर्थे स्त्रीत्वमपि अनेनैव ज्ञायते ज्ञाप्यते तथैव आनुनीश महद्धिमम् हिमानि महदरण्यम् ह्यूज फॉरेस्ट और डेंस फॉरेस्ट इज कॉल्ड अरण्यानि अरण्य शब्दात् नीश आनुच्च यवात् दोषे इति अपरं वार्तिकं यवशब्दात् दोषे अर्थे गम्यमाने दैट इट इज बीन स्पॉइल्ड और रॉटन इत्यर्थे दुष्टः यवः यवानि यव इज पैडी सो दैट विच इज नॉट गुड दैट विच हैज बीन रॉटन इत्यर्थे अत्र नीश आनुच्च यवानि यवनाल् लिप्याम् इति अपरं वार्तिकं सो फॉर द वर्ड यवन लिपि स्क्रिप्ट इत्यर्थे नीश आनुक्त विधीयते यवनानां लिपिः यवनानि यवनानि इज द स्क्रिप्ट ऑफ यवना सो दीस फोर वर्ड्स आर यूज्ड इन अ वेरी स्पेसिफिक सेंस अगेन द लास्ट The Yavanas Greek, yes, mostly it refers to Greeks, but there are also cases where it refers to other invaders or people who have come from the West. For many, yes, Yavana is popularly used for Greek, but generally for invaders from the West, they use the word. The last two words were Matula and Acharya. Matula Upadhyaya Yohu Anugva Iti Vartikena Uchyate. Tatra Matula Shabdaha Sutra Eva Asti Matula Acharya Namiti. So Matula Asti Stri, the wife of the maternal uncle Ityarthe. Anugva Vikalpena Anugagamah Bhavati Uchyate. Nishtu Punyogarakhyayam Ityane Naima Bhavati. आनुक विकल्प्यते सो मातुलानि इति एकं रूपं आनुकः अभावे मातुली इति रूपं सो बोथ ऑफ देम विल रेफर टू द वाइफ ऑफ द मैटरनल उपाध्यायानि उपाध्यायी द वर्ड उपाध्याय इज नॉट फाउंड इन द सूत्र सूत्रे नास्ति अतः अनुगागमस्य प्राप्तिः एव नास्ति किन्तु अनेन वार्तिकेन विकल्पेन अनुविधीयते आनुकि सति उपाध्यायानि इति रूपम् अनुगः अभावे उपाध्यायी या तु स्वयमेव अध्यापिका पुनः वार्तिकम् उपाध्यायी इत्यस्य कोऽर्थः उपाध्यायानि उपाध्यायी इत्यस्य उपाध्यायस्य स्त्री द वैफ् आफ् द टीचर् इत्यर्थः या तु स्वयमेव अध्यापिका शी हू टीचर्स हरसेल्फ तत्र वा नीश वाच्यः द नीश इटसेल्फ इज ऑप्शनल सो उपाध्यायी इति एकं रूपं उपाध्याया इति अपरं रूपं सो आनुक इज ओनली इन पुंयोग पुंयोगे यदा नीश भवति तदा विकल्पेन अनुगागमः विधीयते यदा तु स्वयं अध्यापिका तस्याः नीश भवति तदा अनुगागमः न भवति सो देयर विल बी नो आनुक So if she is a teacher herself, it can be either Upadhyayi or Upadhyaya. The wife of the teacher, it can be Upadhyayani or Upadhyayi. So the word Upadhyayi can refer to either. either the wife of the teacher or she who is the teacher herself, to be known based on context. But Upadhyaya always refers to a teacher herself, whereas Upadhyayani is always the wife of the teacher. So, Yati Swayam Eva iti Vyakhyane. Idam tu vartikam tritiyasya tritiye. Tritiyasya tritiye. Tritiya adhyayasya tritiya pade. Hingascha iti sutre pathitam. Ya swayameva adhyapayati. Natu upadhyayasya stri. Tatra puyoga bhave vi. Kevala nish vikalpaha vachyaha ityarthaha. Yugantare brahmavadinya striyasanti. Tadvishayam idam. So it says in the previous eras, or the other yugas, there were women who had studied, who had, there's a very famous Smriti Vakya. Pura Yogeshu Narinam Maunji Bandhana Mishrate Adhyapananta Vedanam Savitri Vachanam Tatha. So they had Maunji Bandhana Upanayana followed by Vedanam Adhyapanam. They studied the Vedas, Savitri Vachanam and Gayat Upadesha, etc. So there is the possibility that she can be a upadhyaya herself. Acharyat anatvam cha iti agrimam vartukam asti. The antimam padam sutre acharya yavayavana matula acharyanam anata. So acharyat anatvam cha sutrena anukhitam. Anena vartikena anatvam natva bhavaha uchyate. Acharyasya stri इत्यर्थे आचार्य इत्यस्मान् नीश आनुक्च भवति आचार्यानि इत्यस्ति रेफम निमित्तीकृत्य अटकुप्पाङ्गम यमायेपि इत्यनेन नकारस्य णत्वे प्राप्ते अनेन नास्तिकेन णत्वं निषिध्यते अतः आचार्यानि इत्यत्र णत्वं न भवति इत्यर्थः आचार्यानि Acharyasya stri ityarthaha. So this is the wife of the acharya ityeva arthaha. Hatkupang iti naktam na bhavati. Upaniyatu yashishyam. Here he shows the difference between upadhyaya and acharya. Okay. So upaniyatu yashishyam veda madhyapaye dvijaha sakalpam sarahasyancha samacharyam prasakshate. So the acharya is the one who conducts upanayana for the vatu. Veda Madhyapayet teaches him the complete Vedas. Sakalpam Sarahasyam cha, along with Kalpa, Rahasya, Vedanga and everything. He who takes care of the entire education is called an Acharya. Ekadesham Upadhyayaha. He who does only a part of it. That is, he either does Upanayana or he teaches a part of his thing. He is called an Upadhyaya. So that is the difference between Upadhyaya and Acharya. So, Acharyasya stri Acharyani. The wife of Acharya is Acharyani. Puyoge ityeva. So, this is again, nish is puyoge nish. Acharya swayam vyakhyatri. She who is an Acharya herself. That is, she dharmopadeshtri ityarthaha iti vyakhyane asti. Swayam vyakhyatri. Isya dharmopadeshtri ityarthaha. Yasmad dharman achinoti sa acharyaha iti smaranad iti bhava. Again, she who does it herself, she is called Acharya Tap Pratyaha Bhavati. Puyoga Hanasti Ataha Nishna Bhavati. Ajaditashta Pityanena Tapi Acharya Hirupam. Arya Kshatriya Abhyam Va Swathe Iti Agrimam Vartikam. Arya Shabdat Swathe Nish bhavati, anug api bhavati. So there is both nish and anug being given by the vartika. Swamini vaishya va ityarthaha. Arya shabdasya swami athava vaishyaha ityarthaha. Arya, arya ubhayo vityaha. There is a difference in meaning. There is a difference in krit pratyaya. So, arya shabdasya swami athava vaishyaha ityarthaha. So, aryani ya swayam swamini vaishyava. Tasyaha aryani arya iti rupadvayam. Okay, so, there is an optional Nish plus Anuk together. So when there is Nish and Anuk, the form is Aryani. So when there is neither, Kimavati, Ajajatashta, Kanenata, Arya, Kirupam. Kshatriyani, Kshatriya. So she who is born in the Kshatriya Kula. So that is, she is, belongs to the Kshatriya Varna herself. Tadatu Punaha, Anuk, Nish, Etayohu, Pakshe, Kshatriyani, Kirupam. Abhave, Anukaha Nishishta Abhave, Kshatriya, Kirupam. Niyoge tu, but this is not in Niyoga. She who is herself a Kshatriya or a Swamini or Vaishya. So, Niyoge tu, if it is in Niyoga, Kevalam Nish Bhavati. Niyoga Rakhyayam, Itenena Nish Bhavati. Aryi Kshatriyi. Arya, Ityasma Nishikrute, Aryi Kirupam. Kshatriya, Ityasma Nishikrute, Kshatriyi. Aryasya Sri, Kshatriyasya Sri, Itkartha. Katham Brahmani iti. There is a very famous term for Saraswati called Brahmani. So, Darshaneta Shivani Mridani iti vachruyate. It looks like it, but there is no sutra which gives Anuk. Right? There is only Nish can be had from Punyoga Vakhyayam. Kintu Anuk Vidhayakam Kimapi Sutram Va Vaptikam Va Nasti. Katham Brahmani iti rupasya sadhutvam. Iti prashnaha. Brahmanam anayati, jivayati, iti karmanyena. So he gives a completely different vyutpatti for Brahmani. It is not Brahmanaha Sri. Ityarthe Brahmani iti nabhavati. Brahmanam anayati, jivayati. She is who gives life to Brahma. Ityarthe karmanyena. So Brahmanam iti vyakhyanam. Anayati ityasya vyakhyanam jivayati iti. Anapranane. Iti dhatoho niji anayati iti rupam bhavati. Anayati nama jivayati, prananam nama jivanam. Asmad dhatoho hetuman niji, ana dhatoho hetuman niji, upadhavruddhau. Ana iti tipishatiti guna aya deshau anayati iti rupam. So anayati is the niji, preranataka nijanta of an. Bhartra jivanasya jama saumangalya yatatvat. So the life of the husband depends on the saumangalya of the wife. Ataha jivayati iti prayogaha. Brahmanam jivayati iti. Brahmanaha jaya itiyava arthaha. But the vispati is given in a different way to account for the rupa. Tatasya brahmanam anayati iti vigrahe. Ani iti nyantat karmanyana iti ani. So you have brahma, brahman, ani and an. So, ani kṛta, ani a iti bhavati, ani a iti, neraniti iti nilope, the ikara is deleted by neraniti, so you have ana. Ana shabdena brahmanam ityasya upapada samase subluki navat nilope. So now you, brahman am ana iti kṛdantam iti, amaha subodhatu pratipurikayohu iti lopaha, brahman ana ityasya, nalopah pratipurikantasya iti nena brahman ityasya nakarasya lopaha brahma ana svarnadirghe kṛte brahmana ataha ana shabdena brahmanam ityasya upapada samase subluki nalope svarnadirghe brahmana shabdat tiddhanai iti nipi an pratyayantah tidd dha an ityasti tiddhanai ityanena nip bhavati brahmana I ityasti yasyati cha iti akara lope Brahmani, Brahmani ityasti, Purvapadat samyayam adaha iti natve, Brahmani iti rupam iti bhavaha. So that is how we derive Brahmani. It is not directly Brahmanaha Sri, kintu Brahmanam anayati, jivayati ityarthe, and pratyayanta shabdaha, tasmat neep pratyaha. It is not nishanta, it is neebanta. So there will be a difference in swara. Ekajuttara pade iti tu na, talking about the natva, naktam kena sutrena iti prashnaha. Kim purvapada samyayamakaha iti uttam. Ekajuttara pade naha iti bhavativa iti prashnaha. Where the uttarapada is ekaj, so you have ana. So, iti tu na, anisati adiparikasya dvyaskatvat. So So there is ana, okay, including the and, there are two ach. There is one akara and there is one akara. So pratiparikasya dvyashkatvat. Lukte api ani lopasya sthanivatvat. Even though the an, that is the akara of an, has been deleted. We have done brahmana I, yasi yasi chayatyanena akarasya lopaha bhavati. Tataha brahmani ityasti akare lukte api ani lopasya sthanivatvat. Purvatra siddhiye na sthanivat iti tu na. So there is this famous paribhasha. Purvatra siddhiye sthanivat bhavah na bhavati. If you say you are bringing akara by sthanivat bhava, natva is a tripadi karya. So natva is given in tripadi. So purvatra siddhiye sthanivat bhavah na bhavati kila iti prashne. Tasya doshaha sanyoganta lopa yatva natveshu iti vaktikamasti. Iti apara paribhasha ma vaktikamasti. So this paribhasha, that is purvatra siddhiye nasthanivate iti sanyoganta lopa vishaye yatva vishaye natva vishaye sa napravattate. Arthata natva vishaye sthanivat bhavah bhavati. Sthanivat bhave sthite akaraha sthanivat bhavena aniyate ekatvam nasti. Ataha ekajuttara padena ityanena natvam na bhavati kintu purvapadat samyayamagaha ityanena natvam bhavati. इति ब्रह्माणि इति रूप सिद्धि. एनी क्वेश्चंस? Okay, we'll stop here and continue tomorrow. Enakshara samamnayam adhigamya maheshwara tutham vyakaranam proktam tasme panina e namaha munitrayan namaskritya taruktih paribhavya vyakarana siddhanta kaumudiyam viratsyate.